महोदय सारी क्षमताम् प्लीज़ रीस्टार्ट् ऐ हव् स्टार्टेड् द
रेकार्डिङ्ग् ओके 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 आर् यू आडिबल्
यस् महोदय यस् इट् इस् युर् आडियो इस् आडिबल्
ओके हरिः ओम् श्रीगुरुभ्यो नमः ॐ सहना भवतु सहनौ भुनक्तु सकवीर्यं करवावहि तेजस्विनावधिमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा पठामि संस्कृतं नित्यं पठामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं वन्दे संस्कृतमातरं वन्दे संस्कृतमातरं महोदय गीतं महोदय
महोदय
सरलभाषा संस्कृतं सरसभाषा संस्कृतं सरस सरलमनोज्ञमङ्गलदेवभाषा संस्कृतं मधुरभाषा संस्कृतं मृतुलभाषा संस्कृतं मृतुलमधुरमनोहरामृततुल्यभाषा संस्कृतं देवभाषा संस्कृतं वेदभाषा संस्कृतं वेदभावविनाचकं खलु दिव्यभाषा संस्कृतं सरलभाषा संस्कृतं सरसभाषा संस्कृतम् अमृतभाषा संस्कृतम् अतुलभाषा संस्कृतम् सुकृतिजनविधि परिलसित शुभवेदभाषा संस्कृतम् भुवनभाषा संस्कृतम् भवनभाषा संस्कृतम् भरतभूमिपरिलसितकाव्य मनोज्ञभाषा संस्कृतम् शस्त्रभाषा संस्कृतम् शास्त्रभाषा संस्कृतम् शस्त्रशास्त्रप्रदर्शभारत राष्ट्रभाषा संस्कृतम् सरलभाषा संस्कृतम् सरसभाषा संस्कृतम् सरलभाषा संस्कृतम् सरसभाषा संस्कृतम् धन्यवादः महोदय
अस्तु सो वि विल् स्टार्ट् वित् टुडे हौ वि आर् गोयिङ्ग् टु रेफर् टु द सेकेण्ड् डिक्लेन्शन् जस्ट् गिव् मि अ मिनिट् लेट् मी ट्रै टु म्यूट् एव्रिबडि We will try to see the second declension today. And we have so far already seen how they are addressed in first declension. So we have seen how pronouns are addressed in first declension or the Prathama Vibhakti. And in also we have seen the Shashti Vibhakti, which is sixth declension. And also we have seen Saptami Vibhakti, which is the seventh declension. So today we will start with the second declension, which is the Dvitiya Vibhakti. So these are basically the cases that we are trying to address here. And already I have shared this sheet with you that is already available on the website. So please try to get it from this website, which is called as the Basic Vibhakti Sheet. So this describes how different words are there in the seven vibhaktis plus the Sambodhana Vibhakti. So Devaha Devo Devaha is Prathama Vibhakti. Dvitiya Vibhakti is Devam Devo Devan. Tritiya Vibhakti is Devena Devabhyam Devaihi. Chaturthi Vibhakti is Devaya Devabhyam Devebhya. Panchami Vibhakti is Devata Devabhyam Devebhya. Shashti Devasya Devayoho Devanam. Saptami Deve Devayoho Deveshu. And Sambodhana Deva Devo Devaha. So the way we are going to learn a word is trying to address it completely, trying to tell what is the ending word and what is the root word here. So akaranta pumlinga deva shabdaha. This is how we are going to tell a word or describe the word. Akaranta vastu.
Sir, one doubt.
Is it better now? Is the screen visible now?
Sir, tritiya, chaturthiya and pancham vibhakti divachan.
Please, Mahodaya.
Hello?
Hello, yes sir. Can you hear me?
Tritiya, chaturthi, panchami. Dvivachan, vibhakti. It is same. How can I identify the... How can I identify that it is for Tritiya, it is for Chaturthi and it is for Panchami?
Very good. Yes, Mahodaya. Yes, so this we'll try to address as we go forward. This depends on the context and also how that word has been used before and after.
Okay, sir. Okay, sir.
That way we'll be able to identify. For that, we should know how the word is being used, what is the action, and so on. With respect to that context, we will come to know about the word as well. But as we go forward, we'll try to learn more about it. So now, this is just for introduction. So the reason this sheet has been shared is, this is what will be helpful. The way words will be there will be similar to his. Akaranta Pumlinga, some Rama Shabdaha, Deva Shabdaha, Vruksha Shabdaha will all be same. Vrukshaha, Vruksha, Vrukshaha, Vruksham, Vruksha, Vrukshan, Vrukshena, Vrukshabhyam, Vrukshaihi, Vrukshaya, Vrukshabhyam, Vrukshebhyaha, Vrukshat, Vrukshabhyam, Vrukshebhyaha, Vrukshasya, Vrukshayoho, Vrukshanam, Vrukshe, Vrukshayoho, Vrukshesu, Vruksha, Vruksha, Vrukshaha. So this declension will be the same for any word that is of that form. So to identify its root form or how it is formed, there are various rules, but for now we need not go into those rules right now. These are very advanced stages, we can learn them. But for now, to identify a word and to keep reciting them, this sheet will be handy to know what we are trying to do, how the words are formed or how it is going to be used. So if we are using etasya koshtakasya, so in our Abhyasa Pustakam book, most of her instructions are written as Shashti Vibhakti. Etasya Koshtakasya Sthanani Purayata. So something like that is there. It means that please try to fill in these blanks that are given below. That is how they are being addressed. So our Udharanman, okay, we'll come to this. But if you look at some of the things that we have, Etas Sambhashanam Patatu, Etesham Prashnanam Uttaram Likhatu, this is how these sentences are being formed. And also some of the words that we have seen. For example, I am reading out this particular, one second. Let me also open that so that it will make what we are doing. Abhyasa Pustakam. Right? So as you see here, most of our instructions are also given like this. Etasya Uttaram Likhatu. Etasya, now we know. So now what are they trying to refer is Shashti Vibhakti here. Write the answer here of these. Something is what is meant here. So etasya uttaram likhatu. They are requesting us. Similarly here in this case udaharanam drushtva. Drushtva we have not come across. Tadrusha vakyani likhatu. So here vakyani we have come across. Vakyani is napunsakalingam bahuvachana rupam. Likhatu, also we have come. This is Lot Lakara Rupam. So as we read this, so please also try to read the instructions. I think we have already discussed this. So that whatever we are trying to learn is also kind of we are coming across now. This is one way. And if there are any short books or anything, please also try to read them. We have Chandamama online. Chandamama is a famous book that was there, which tries to read start stories. So that is also there online. So we can have some Sanskrit books in Chandamama as well. So that is also there. I will share the link later for Sanskritam. So for last 20 years, I think they have made it online. So there, also we can find these kind of words, but that will take some more time. If Devanagari script is not really comfortable right now, that might take time, but if you are willing, you can also read such kind of small sentences. Astu. So here again, etasya koshtakasya sahayena vakyani likhatu. So some of these things we have already come across, right? Sahayena is not yet covered, so we'll see how these kind of words could be addressed as we go forward when we learn vibhaktis. But etasya koshtakasya, so etat or eshaha, this is what the root word etasya. Now etasya we might not know, so let us try to see this table. The table here mentions that it is devasya. Devasya means shashti. So probably asya is generally kind of shashti vibhakti. So that is how we'll try to identify the words also. Koshtakasya. So kasya, koshtakasya, koshtakaha probably could be the word. Koshtakaha, koshtakasya. So akaranta pumlinga shashti, akaranta pumlinga koshtaha, koshtakaha shabdaha. This is how we can identify the word also. Vakyani. Now vakyam, we have tried to learn this as akaranta napunsakalinga shabdaha. Likhatu. Likhatu we already seen. So this is becoming a verb, right? Likhati, likhatu. So that way we will try to identify the words as well. Astu. So please try to see those words whenever you get a time. That sheet will be very helpful and also handy as well. So we have already learnt ekavachanam prathama vibhakti sarvanama rupa shabdaha. And what are the sarvanama shabdaha pronouns? That is what we have learned. He, pumlingaha is saha. He, yeshaha, when we are trying to refer a pumlinga or somebody who is, or we are trying to somebody address with pumlinga who is near, we are trying to address it as yeshaha. Similarly, sa. Sa is for strilingam and somebody who is very far, sa. Esha, strilingam again. Napunsakalingam, tat. And napunsakalingam, etat. This we have already seen. So when it comes to dvitiya vibhakti, so instead of he, we want to refer something as him. Then we try to use dvitiya vibhakti. We try to use dvitiya vibhakti. And this also goes for nouns as well. This also goes for nouns. When we say nouns, we are referring to names. Names will also be in dvitiya vibhakti. So Ramaha, we'll see how that will change to dvitiya vibhakti. So now, if we want to refer to he as him, then we will go for what is called as dvitiya vibhakti or second declension. Second declension. So it will become, he will become him. He will become him. And how we are going to, aham is already know. We know I see him. We know I is aham. See means pashyami. Him means tam. So when we want to refer somebody who is far away, then we will say if it is him, then it will become tam. So second declension, saha will become tam. Saha tau te tam tau tan. So second declension will become tam. The first in singular, this is again singular. Please note, this is only for singular. It will become tam. Aham tam pashyami. I see him. That is what it means. Aham tam pashyami. So how are the rupams for this? Eshaha in second declension or in dvitiya vibhakti will become etam. Saha will become tam. Esha will become etam. Sa will become tam in dvitiya vibhakti. Kaha tam. Kaha kam. Ka will become kam. Ka will become kam. Etat, etat. So napunsakalingam. Etat is napunsakalingam. Ka is trilingam. Esha and etam are trilingam. Esha is pradhama vibhakti. Etam is dvitiya vibhakti. Sa is again pradhama vibhakti. Tam is again dvitiya vibhakti. Kaha, we have seen already kaha. Saha kaha, right? Saha kaha. So the question kaha will also become kam in dvitiya vibhakti. Means it is a second declension. Second declension or dvitiya vibhakti will become kam. Similarly, kaha will become kam. Ka will become kam. Again, ka will become kam. For napunsakalingam, napunsakalingam etat will remain etat. Tat will remain tat. Bhavan, we have seen already bhavan. It will become bhavantam. Bhavantam. Bhavati will become bhavatim. Similarly, kim will become kim and kim will become kim only. So, the rupam will remain the same for kim and etat and tat. Bhavan will become Bhavantam. Bhavati will be now Bhavan, Bhavatim in second inclination or Dvitiya Vibhakti. Also, so this is how we are going to use the words in second inclination. Okay, so the nouns will also become that way. So, Eshaha, Etam, I see him, Aham, Etam, Pashyami, Aham, Eshaha, Pashyami. So, we already saw that Eshaha, Pashyami, Eshaha, Pashyami or Eshaha, Pashyati. If it is Eshaha, Eshaha, Pashyati. But if I want to say, I see him, Aham, Etam, Pashyami, who is somebody near. Somebody who is far, Saha, will become Tam. I see him. Aham, Tam, Pashyami. Aham, Tam, Pashyami. Somebody who is far, I see him. Aham, Tam, Pashyami. Similarly, Esha. Esha is somebody who is near with respect to Strilinga. Right? Esha is Strilinga usage. So, Etam will be second inclination or Dvitiya Vibhakti. Aham, Etam, Pashyami. I see her. Who is somebody who is nearby. So, we are trying to refer somebody who is nearby. Aham etam pashyami. Sa will become tam. Sa will become tam. Aham tam pashyami. Aham tam pashyami. Etat will become etat only. Aham etat pashyami. Tat will become tat only in the second inclination and Dvitiya Vibhakti. Aham tat pashyami. Bhavan bhavantam. So, bhavan is pradhama rupam. Bhavat shabda. So, it is bhavat shabda. Some of the words we have still not gone into the roots, but if you have not gone into the roots, so then do not worry about that and don't refer to the table if it is not there. If it is not there, then please do not worry about it. So, Bhavan will become Bhavantam, right? Bhavan will become Bhavantam. Bhavantam Patayami, I am going to teach you. So, with respect, we are trying to say Bhavantam Patayami, Aham Bhavantam Patayami, Bhavatim. Aham bhavatim patayami. Kaha kam. Kaha is question. In Dvitiya Vibhakti, it will become kam. Who should I teach? Kam patayami. Aham kam patayami. So, kam patayami means the answer is being referred to as it could be male or female. Similarly, ka. Aham kam patayami. Aham kam patayami. So, kam again is like who should I teach? Aham kam patayami. For Napunsakalingam, kim remains kim. Aham kim patayami. Kim or what? Right? What should I teach? Aham kim patayami. What should I teach? So, we have kaha will become kam, ka will become kam, kim will become kim in Dvitiya Vibhakti for these questions. Prashnavachi Shabdhar in Dvitiya Vibhakti are in these forms. Kaha kam, ka kam, kim kim. So, this is how this is going to be in Dvitiya Vibhakti or second declension. So, we'll try to see how these are being used. So, here we have Balika and Vidyalaya. So, Balika kutra gachati or kim gachati? Balika Vidyalayam gachati. So, the girl goes to the school. Balika Vidyalayam gachati. Balika Vidyalaya. So, Vidyalayam gachati. So, it is going to the school. So, Balika Vidyalayam Gachati. That is what the Rupam will take when it comes to Dvitiya Vibhakti. How it is going to be read or how it is going to be used. So, Balika Vidyalayam Gachati. Vidyalaya is Pradhama Vibhakti. But when we are trying to say that this is the place the girl is going to go, then it is saying, we are trying to use it as Balika Vidyalayam Gachati. Vidyalayam. So it is in Dvitiya Vibhakti. That is what we are trying to refer to as Dvitiya Vibhakti. So let us try to practice this. So first, Ravindra Mahodaya, are you available?
No.
Mahodaya, can you please do this?
Mahila apanam gachati. Mahila sir, just please guide me for 1 minute.
So Mahila here is lady.
Yeah.
महिला अस्ति आपणः अस्ति महिला कुत्र गच्छति महिला आपणं आपणं गच्छति महिला किं करोति महिला आपणं गच्छति
थैंक यू
महिला किं करोति महिला अस्तु अस्तु महोदय अग्रे पुरुषः अस्ति मन्दिरम् अस्ति पुरुषः किं करोति पुरुषः मन्दिरं गच्छति पुरुषः मन्दिरं गच्छति अग्रे वृद्धा अस्ति ग्रामः अस्ति वृद्धा किं करोति
वृद्धा ग्रामं गच्छति
वृद्धा ग्रामं गच्छति समीचीनम् अग्रे अम्बा अस्ति पुत्रः
अम्बा पुत्रं पालयति
अम्बा पुत्रं पालयति अस्तु अग्रे अत्र बालिका अस्ति पाञ्चालिका अस्ति
बालिका किं करोति
बालिका किं करोति
बालिका पाञ्चालिकां
ददाति
ददाति
ददाति अथवा बालिका पाञ्चालिकां स्वीकरोति समीचीनम् अग्रे बालिका अस्ति कविता लिखति बालिका किं लिखति
बालिका कवितां लिखति
हा बालिका कवितां लिखति बालिका कवितां लिखति अत्र बालिका अस्ति माता अस्ति बालिका सारी बालकः अस्ति माता अस्ति बालकः किं करोति
बालकः पुष्पं ददाति
बालकः पुष्पं ददाति समीचीनम् अग्रे अत्र बहूनि पदानि दत्तानि अत्र दत्तः दत्तानि क्षमतां दत्तानि नास्ति दत्तः अत्र पाठः इति पदमस्ति तत् रूपं रामः पाठं पठति इति अवशिष्यते खलु
कृषकः कृषकः केशं कर्तयति छात्रः देशं गच्छति वृद्धा बालकं पालयति
महोदय एकवारं पदम् इति वदतु अनन्तरं वाक्यं वदतु
अच्छा भीष्मा प्रेषयति भीमा दूतं प्रेषयति वृद्धा गच्छति वृद्धा ग्रामं गच्छति
पदमपि इति वदतु ग्रामः वृद्धा गच्छति
ओके सर् शब्दः आचार्यः वदति आचार्यः शब्दं वदति चन्द्रः
समीचीनं
गगनयात्रिकः गच्छति गगनयात्रिकः चन्द्रं गच्छति प्रश्नः छात्रः पृच्छति छात्रः प्रश्नं पृच्छति ग्रन्थः लेखकः लिखति लेखकः ग्रन्थं लिखति वत्सः धेनुः पालयति धेनुः वत्सं पालयति विद्यालयः छात्रः गच्छति छात्रा विद्यालयं गच्छति
समीचीनं महोदय बहु समीचीनं धन्यवादः महोदय अग्रे ऐश्वर्या भगिनी अस्ति वा
अस्ति महोदय
अस्ति वा एतत् एक्सर्सैज् अस्ति अत्र एकवारं पदं वदतु अनन्तरं वाक्यं वदतु
कृषकः सूर्यः ददति
प्रकाशः
प्रकाशः सूर्यः ददाति सूर्यः प्रकाशं ददाति
ददाति एकवचनं ददति बहुवचनरूपं भगिनि ददाति एकवचनरूपम् अस्तु अग्रे अग्रे भगिनि
मोदकः मोदकः युवती खादति युवती मोदकं खादति मूषकः मार्जारः प्रक्षालयति मार्जारः मूषकं प्रक्षालयति
प्रक्षालयति
सर् प्रक्षालयति मीन्स् वेटिङ्ग्
प्रक्षालयति अत्र प्रक्षालयति
ऐ थिङ्क् इट् इस् वेटिङ्ग्
इट् आक्चुलि वाश्ड् आक्चुलि वेन् यु से प्रक्षालयति इट् इस् नाट् प्रक्षालयति इट् शुड् बि आचार्यः खादति याति प्रक्षालयति
मार्जारः मूषकं खादति मेबि प्रक्षालयति
समीचीनं खादति समीचीनं
प्रक्षालयति इस् टु क्लीन्
प्रतीक्षयति प्रतीक्षयति इस् हां भगिनि हां भगिनि समीचीनं सत्यं ऐ थिङ्क् द वर्डिङ्ग् इस् राङ्ग् हियर् इट् इस् एट् लीस्ट् प्रतीक्षयति मार्जारः मूषकं प्रतीक्षयति प्राबब्लि हा आर् खादति प्रक्षालयति इफ् इट् इस् वाशिङ्ग् मार्जारः मार्जारः इस् क्याट् विल् सी दिस् ऐ विल् ट्रै टु एडिट् दिस् भगिनि अस्तु अग्रे
भिक्षुकः धनिकः भिक्षुकः याचति
याचति हा भिक्षुकः याचति भिक्षुकः
भिक्षुकः धनिकां धनिकं याचति
सो बेगर् आस् द रिच् मेन् अस्तु समीचीनम् अग्रे
देवः बालकः नमति बालकः देवं नमति
समीचीनम् अग्रे
कोरः
चोरः
आरक्षकः गृह्णाति
आरक्षकः चोरं गृह्णाति
आरक्षकः चोरं गृह्णाति
सर् गृह्णाति इस् करेक्ट्
गृह्णाति
ऐ थिंक
गृह्णाति इस् कैचिंग गृह्णाति
सम योर आई अंडरस्टैंड दैट
कैचिंग
ओके
वृक्षः वानरः आरोहति वानरः वृक्षम् आरोहति
आरोहति ओके
गन्धः महिला जिघ्रति महिला गन्धं जिघ्रति
जिघ्नति इत्युक्ते
टु स्मेल्
जिघ्रति इत्युक्ते स्मेलिङ्ग् भगिनि स्मेल् टु स्मेल् भगिनि अस्तु अग्रे
आहारः गृहिणी पचति गृहिणी आहारं पचति
आहारम् 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 इत्युक्ते फुड् पचति इत्युक्ते कुक् सो
पर्वतः पर्वतः यात्रिका आरोहति
आरोहति
यात्रिका पर्वतम् आरोहति
समीचीनं क्लैम्स् सो ट्रावेलर् क्लैम्स् द हिल् अस्तु अग्रे
सर् जस्ट् वन् डौट् सर्
आम् आं महोदय
here should be a seventh declination yani saptami vibhakti vruksha parvate parga
parvate api samichanam parvate when he climbs on top of the hill we can say parvate asti ya parvate aarohati on top of the hill samichanam tatrate upayogam samichanam asti atra
acha okay
shakaham
So when we say parvatam arohati, we are trying to refer that he is climbing from the top of the hill probably. Parvate asti if you say, he is on, already on the top.
Okay. Thank you.
Astu Bhagini. Bhagini, please go ahead.
Shakaha balika pachati. Balika shakam pachati.
शाकम् इत्युक्ते करि पचति इत्युक्ते कुकिङ्ग् वेजिटेबल्स् शाका इत्युक्ते वेजिटेबल्स् चेस् कुकिङ्ग् वेजिटेबल्स् समीचीनं भगिनि बहु समीचीनं धन्यवादः अग्रे अस्ति मुरुगन् महोदय अस्ति वा
आं महोदय
केन् यु प्लीस् डू दिस् महोदय This is Trilinga Rupam. So before that we have done Punlinga Rupam. Now please observe the words how Trilinga Rupam are changed from Pradhama Vibhakti to Dvitiya Vibhakti. These are all Akaranta Trilinga Shabdaha. Shabdaha.
Start the exams.
Yes, Mohamode, please start.
Patam. पाठशाला छात्रा पाठशालां गच्छति
समीचीनम्
पदं सीता रामः सीता आलिङ्गति
आलिङ्गति
आलिङ्गति पदं पदं छात्रा सारी पदं छात्रा अध्यापकः अध्यापकः छात्राः पाठयति
छात्रां
अध्यापकः
छात्रां
अध्यापकः छात्रां पाठयति
समीचीनं
भक्ता देवां नमति
देवतां नमति देवं नमति
देवतां देवं नमति मालापदं महिला मालां हरति
एकनिमिषं महोदय इफ् दिस् इस् नाट् विसिबल् ऐ हव् ट्रै टु ज़ूम् इन् जस्ट् सी इफ् इट् इस् फैन् नौ
पदं भाषा वाचकः भाषां वदति पदं वीणा
वाचकः भाषां वदति
पदं वीणा विना विना कलाकारः वीणां दाद्यति
वादयति
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 सोरि
अस्तु महोदय,
पदं परीक्षा, sorry, screen is not visible for me. Where is it?
You want me to zoom in or zoom out?
Some slide changes, I feel.
Slide is changed, huh? One second. Yeah. No, Maudia. Okay, I'm not changing it. Can you see it now?
The slide is correct.
Now it's okay. Pariksha. Padam Pariksha. Shatraga Pariksham Likati. पदं नासिका रामः रामः सूक्ष्मकायाः नासिकां कर्तयति.
शूर्पणकायाः. सो विच् विभक्ति इस् इट्? शूर्पणकायाः.
That is
Dutya. Cheshti Vibhakti. Cheshti Vibhakti. So, nose of Shurpanaka. So, Shurpanakayaha.
Shurpanakayaha.
It is Cheshti Vibhakti.
Nasikam Kartayati.
Nasikam Kartayati.
Patam Ganga. Yudhishthiraga. Yudhishthiraha. युधिष्ठिरः गङ्गां गच्छति.
समीचीनम्. अग्रे
गायिका श्रोतारः गायिकाम् अर्चयति.
समीचीनम्.
क्षमा.
याचति. बहु समीचीनं महोदय, बहु समीचीनं.
धन्यवादः.
अस्तु अग्रे. अस्तु महोदय, अग्रे इन्द्रा भगिनी अस्ति वा?
अस्मि
महोदय. सोरि भगिनी, आर् यु एबल् टु सी दि स्क्रीन्?
या, ऐ केन् सी. दृश्यते.
अस्तु.
लज्जा युवती अनुभवति, युवती लज्जाम् अनुभवति. शीला बालकः स्वीकरोति, बालकः शीलां स्वीकरोति. शाटिका महिला धरति, महिला शाटिकां धरति. क्रीडा बालिका क्रीडति, बालिका क्रीडां क्रीडति. सेना सेनापति योजयति, सेनापति सेनां योजयति. पेटिका.
भगिनि एकनिमिषम्. अत्र सेनापतिः, सो प्लीज़ आल्सो ट्राई टु यूज़ द विसर्ग.
सेनापतिः सेनां योजयति. पेटिका वर्तिका आनयति.
वार्तिकः
पेटिकाम् आनयति. पूजा भक्ता करोति, भक्ता पूजां करोति.
सारी वन् मिनिट् सर्. What shatika means?
Shatika. Shatika is sari.
Shatika.
Mahila. Shatika. Sari. Javanika. Shatika.
Okay.
धन्यवाद
शाटिका इज सारी महिला शाटिका
सारी शाटिका इज सारी
महोदय वार्तिकः व्हाट डू यू मीन बाय वार्तिकः
Vartikah is actually a person who is trying to carry a gas. Vartikah.
Carry what?
Carry something.
Okay.
Like a porter.
Porter, yes.
Okay, okay.
That is what is Vartikah.
Vartikah means we
should
can...
Should I continue with Yojana?
Varta is Yojana. Varta... Ha, Magni. Yes, yes. You please continue. We'll try to address the question.
Vartikah means... Can... Asuna,
you please continue.
Vartikah means we can assume it as weights.
Vartikah. Not weights. Here actually we are referring to somebody who can carry something. Vartikah.
Okay, transporter.
Transporter, yes. Who can carry something. That is what is Vartikah.
Okay, means a transporter means we can say bus? No, only person.
No, here it is referring to a person here. We are referring to Vartikah, a person who can carry something. That is what Vartikah is what is we are referring to here.
Okay. Thank you.
Yanam. Okay. When we want to use something, we are using Yanam. Karayanam, Relayanam, Vichakrika Yanam. So we are using Yanam in order to refer to something that is carrying.
Yojanah Prabantika Karoti. Prabantika Yojanam Karoti.
Yojanam. Yojanam.
Yojanam. Yojanam.
You organize. Organizer is trying to strategize or he is going to do. Yojana is could be strategized or it could be organized. Yojanam karoti.
Safalata.
Hmm.
Tendulkar anubhavati. Tendulkar safalatam anubhavati.
Samishinam.
स्थालिका बालिका नयति बालिका स्थालिकां नयति
इट इज एक्चुअली रॉन्ग हियर यू आर प्रोनाउंसिंग करेक्टली भगिनी हां हां यस बिकॉज ऑफ द ट्रांसलिटरेशन दिस इज मेकिंग सेंस बट व्हेन वी ट्राई टू टाइप इट दिस हैज गॉन रॉन्ग बट व्हाट यू हैव प्रोनाउंसड राइट भगिनी बालिका स्थालिकां नयति दैट इज राइट
महिला पुरुषः इच्छति पुरुषः महिलाम् इच्छति पंडिता पंडिता ओके महाराजा पंडितां परितोषयति
Paritoshayati, gifts. He is giving gifts. Maharaja is giving gifts to the Panditam. Astu Bhagini, Samithina. Oh, Samithina Bhagini. Dhanyavadaha. Agre. Triveni Bhagini Asti va?
Asti Mahodaya.
Are you able to see the screen?
Yes.
Okay. Can you do this slide?
Yes, yes. Viduya Brahmachari Anusarati. Brahmachari Viduyam Anusarati. Vedana. Okay, Vidyam.
Vidyam.
विद्याम् अनुसरति वेदना रोगी अनुभवति रोगी वेदनाम् अनुभवति राक्षा शृगालः इच्छति शृगालः राक्षाम् इच्छति सीता रामः आलिङ्गति रामः सीताम् आलिङ्गति देवता भक्ता नमति भक्ता देवतां नमति गायिका श्रोतराः अर्चयति श्रोतराः गायिका अर्चयति क्षमा चोरः याचति चोरः क्षमां याचयति महिला पुरुषः इच्छति पुरुषः महिलाम् इच्छति पण्डिता महाराजः पारितोषयति महाराजः पण्डितां पारितोषयति विद्या ब्रह्मचारी अनुसरति ब्रह्मचारी विद्याम् अनुसरति
समीचीनम् अस्तु अग्रे उषा भगिनी अस्ति वा
महोदय यस् महोदय
आं भगिनि सो केन् यु प्लीस् डू दिस् स्लैड्
अङ्गुली आरक्षकः आरक्षकः अङ्गुलीम् अङ्गुलीं दर्शयति अङ्कनी अङ्कनी छात्रा अङ्गनीं क्रीणाति सम्मार्जनी सम्मार्जनी सेविका सम्मार्जनी मीन्स्
ब्रूम्स्टिक्
सम्मार्जनीं स्वीकरोति शिशुः दूरवाणीं विक्रीणति चित्रगृहिणी
शिशु
आपणिकः चित्रगृहिणीं गृह्णाति
अस्तु भगिनि
कृणाति मीन्स्
गृह्णाति मीन्स् इस् आक्चुलि टेक् आर् केच् दट् इस् वाट् इस् गृह्णाति केच्
गृह्णाति गृह्णाति छात्रः
गृह्णाति
छात्रः अङ्कनी क्रीणाति
क्रीणाति छात्रः क्रीणाति क्रीणाति इस् पर्चेस् पर्चेस् क्रीणाति इस् पर्चेस्
थेङ्क् यु
अस्तु महोदय अग्रे भगिनि इन्द्रा भगिनि नाट् इन्द्रा भगिनि दिस् इस् वन् सेकेण्ड् दिस् इस् उषा भगिनि रैट् ऐ एम् सारि
यस् यस् महोदय रामः रामः कार्यालयं गच्छति महिला गृहम् आगच्छति पुत्रः मधुरं खादति संस्कृत हौ टु रीड् इट्
संस्कृतछात्रः भगिनि संस्कृतछात्रः
संस्कृतछात्रः भगवद्गीतां पठति भगिनी गृहपाठं लिखति बालिका कथां शृणोति वैज्ञानिकः आकाशं पश्यति छात्राः प्रश्नं पृच्छति गुरुः उपदेशं ददाति युवती चित्रं स्वीकरोति
समीचीनं भगिनि बहु समीचीनं धन्यवादः अस्तु भगिनि अग्रे मञ्जुश्री भगिनी अस्ति वा
आं महोदय
Can you please do this slide, Bhagini?
आं महोदय अर्जुनः धनुः नयति अर्जुनः धनुं नयति अध्यापकः उपायः स्मरति अध्यापकः उपायं स्मरति जननी शाकः क्रीणाति जननी शाकं क्रीणाति शकुन्तला सखी मिलति शकुन्तला सखीं मिलति भारतीयः संस्कृतभाषा जानाति भारतीयः संस्कृतभाषां जानाति. पुत्री दूरवाणी त्यजति. पुत्री दूरवाणीं त्यजति. शिशुः जननी गृह्णाति. शिशुः जननीं गृह्णाति. कृष्णं पीतवस्त्रं धरति. इट् विल् बि द सेम्. कृष्णः पीतवस्त्रं धरति. भक्तः गणेशः नमति. भक्तः गणेशं नमति. शिष्यः ध्यानं करोति. इट् विल् बि द सेम्.
समीचीनं भगिनि, बहु समीचीनम् अस्तु.
धन्यवादः महोदय.
आं भगिनि, अग्रे शारदा भगिनी अस्ति वा?
आं महोदय, बट् लेट् मी ट्रै महोदय.
आं महोदय.
पिता पाठः
पुत्रः पठतु.
पुत्रः अहं पाठः.
नौ इट् इस् इट् हेस् टु चेञ्ज् टु द्वितीया विभक्ति भगिनि. सो वाट् इट् विल् बिकम् ओरिजिनलि वाट् डिड् यु से? पाठं पठतु. सो नौ इट् शुड् बि पाठम् ओन्लि भगिनि.
पठितुं न शक्नोमि.
सो फादर् इस् आस्किङ्ग् रीड्. सो जनरलि द सन् विल् से ऐ विल् नाट् रीड्. कन्वर्सेशन् दट् इस् गोयिङ्ग्.
अहं
किमर्थं वै? किमर्थं मीन्स् वै पुत्रः इति वद. पुत्रः
अहं विद्यालयं न गतवान्.
सो गतवान् इस् अ न्यू वर्ड् वी हव् नाट् सीन् सो फार्. गतवान् मीन्स् ऐ हेड् नाट् गान् टु स्कूल्. सो हि इस् टाकिङ्ग् अबौट् पास्ट् टेन्स्. अहं विद्यालयं न गतवान्. पुत्र इस् सेयिङ्ग् अहं विद्यालयं न गतवान्. अस्तु,
ऐ हव् नाट् बीन् टु स्कूल्.
यस्, एक्साक्ट्लि.
पिता भवतु अहं भवान्
समीचीनं. भवन्तं
पाठयामि. सारि, पाठयामि.
ऐ एम् गोयिङ्ग् टु टीच् यू. दट् इस् आर् ऐ एम् गोयिङ्ग् टु रीड् इट् औट् फार् यू. दट् इस् वाट् हीस् द फादर् इस् सेयिङ्ग् नौ. अस्तु भगिनि, अग्रे.
सत्यं भवान् अहं. सो इट् इस् भवन्तः.
न न न, अहम् ओन्लि. न
अहम् ओन्लि. सत्यं भवान्
अहं पाठयति. भवान् अहं पाठयति. माम् इट् विल् बिकम् माम्. अहं विल् बिकम् माम्. सारि, अहं विल् बिकम् माम्. माम् सो ऐ यु गोयिङ्ग् टु टीच् मी? ऐ यु गोयिङ्ग् टु रीड् इट् औट् फार् मी? अहं सत्यं भवान् माम् पाठयति.
सो अहं विल् बिकम् माम्.
अस्तु, माम्. And then we have here, next is the question. Pita, aam paathayami.
I'm going to teach.
Putri.
Putri. Tata, aham. Apne paathayatu.
No, api. Dash api paathayatu. Maam api paathayatu.
So I am going to read now.
You also teach me. Maam api paathayatu. Aham. So the putra said, Satyam, Bhavan, Maam paathayati. So he's asking, Bhavan, Maam paathayati. So putra asked. Then Pita, father said, Aam, paathayami. Yes, I am going to teach you. I am going to read it out for you. Then, with the conversation, he is saying Putri. Means the father has also a daughter. He has a son and a daughter. Putri is given. And then we see Tat.
Again. Okay.
Api Pathayatu. So she is also asking, you also teach me. Also, Api also. Pathayatu.
Oh,
she is requesting. Api, Api Pathayatu.
Will you teach me also? Will you teach me also?
So aham is I, so me will become mom.
Okay. Astu bhavati abhi paatayami.
Bhavatim api paatayami.
Paatayami. Bhavatim abhi paatayami.
Bhavatim paatayami. Astu?
Okay.
Astu Bhagini, so next you also do this. One second, Bhagini. There is a continuation for this conversation. Let us finish this off.
Kata.
Kada.
Kata. Patayati. What
kada
are you?
Kada patayati. Kada na, 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 na. Kada means, Bhagini, what is that Prashnavachaka Shabda kada? What does it mean?
What?
Kaha means who. Na, na.
Kada
kaha
is...
means who. Kim means what, Kutra what? Means where. We have seen Kada, when. Kada means when.
When.
Kada patayati.
When are you going
kada
to
Kada patayati. Correct.
Pita.
Kada patayati.
Pita. Idanam.
Idanim.
Idanim. Bhavan.
Bhavantam paathayami.
Bhavantam paathayami. Bhavantam
paathayami. Samithinam.
Putri.
Anujah. Putra.
Putra. Sorry, putra. Anujah. Katha paathayami.
Katha paathayati.
Paathayati.
So, the son is asking, Anujam kada patayati. So the conversation is going like this. Putraha kada patayati. Putraha is asking kada patayati.
Anujam kada patayati.
Kada patayati. When are you going to teach?
When are you going to teach?
So the father said, I am going to teach you now. Again the son has asked him reverse, saying, when are you going to teach the sister? Anujam. So younger sister, Anujam.
Pita. Sa will become
Tam.
Sayankale Patayami. So I will
Sayankale Patayami.
Patayami.
Yes. Sayankale is in which is Vibhakti?
Shashti.
Sayankale. Last class, Bhagini. Sayankale we have seen. When, right?
So it is Saptami. Saptami.
Saptami Vibhakti. Saptami Vibhakti. Yes, Saptami Vibhakti. And then Vadatu. Vadatu. And he is asking Kaha Pataha. So Kaha Pataha will become, Kaha will become
Tam.
Kaha will become Kam. Yes, Kam. Pataha will become
पाठकं
पाठक पाठं
पाठ पाठ
कं पाठं पाठयामि
ओके कं पाठं पाठयामि विच इज अ लेसन यू आर गोइंग टू टीच मी
यस भगिनि यस एब्सोल्युटली समीचीनम् अग्रे भगिनि पुत्रः
एषः पाठः पाठः सो इट् बिकम्स् एषम्
एषः विल् बिकम् एतम् एषः विल् बिकम्
एतम् एतं पाठं पाठयतु
पाठयतु
एतं पाठं पाठयतु
महोदय
पिता
लास्ट् वन् विल् आं भगिनि
महोदय सर् ऐ गेट् ओन् क्लारिफिकेशन्
यस् महोदय यस् मुरुगन्
एक्चुलि पिता नेक्स्ट् सा विच् वर्ड् वि गौ टु कम्प्लीट् द फिल् फिल् ब्लाङ्क् दट् ईस् सा नेक्स्ट् भवति वि गौ टु वाट् एक्चुलि वि आर् नाट् कम्प्लीट् दट् अनुजा
विच् वन् महोदय अनुजां अनुजां कदा पाठयति सो पुत्रः इस् आस्किङ्ग् वेन् आर् यु गोयिङ्ग् टु टीच् मी कदा पाठयति फस्ट् लैन् पुत्रः कदा पाठयति
Yeah, yeah.
Pita is saying, idanim bhavantam paathayami. Idanim,
okay, that's understood.
Idanim
okay.
means now. Understood. Then we have okay. Putraha. Putraha is again okay. asking. So you are going okay. to teach me now. Putra is asking, Anujam, when are you going to teach the sister? Kada paathayati. Anujam, kada paathayati. Then Pita okay. is asking, Tam, sayankale paathayami. Tam. So here it is, sa is becoming tam.
Word is only tam only. Okay, sa of tam. Okay, okay, okay. Understood, understood.
Ha, sa is becoming
tam. Okay, understood. Dhanyavad Mahodaya.
Aam Mahodaya. Astu. So, sarve paataha. So, sarve is, we have not seen, sarva word, we have not seen, this word pataha also is bahuvachanam we have not seen the bahuvachana rupam so far so it will become ramha ramo ramaha ram ramam ramo raman so it will become raman so pataha will become pathan sarva shabda will become sarvan so we have this sheet so devam devo devan bahuvachana rupam will become bahuvachana rupam there is also rule to this so we will not cover this one for now when we get into the usage we'll again come back to this particular usage which is bahuvachana rupam astu bhagini
thank you maharaja
so we'll come to this usage later for now but this is how we are going to try to address the words so we have okay let me try to make this okay so we have eshah shabdah so eshah shabdah pumlinga rupam is etam so this is prathama vibhakti eshah will become etam and shashti vibhakti will become etasya similarly sah will be in prathama vibhakti tam will be in dvitiya vibhakti tasya is shashti vibhakti similarly bhavan bhavantam and then bhavatah bhavatah is shashti vibhakti भवतः नाम किम् दिस् इस् वाट् वी हेड् सीन् अर्लियर् वि यूस्ड् षष्ठी विभक्ति कः कं कस्य सिमिलर्लि एतत् एतत् एतस्य नपुंसकलिङ्गरूपं तत् इस् प्रथमाविभक्ति तत् इस् द्वितीयाविभक्ति सो तत् मूलरूपम् इस् तद् शब्दः तत् मूलरूपम् आदश रूपम् इस् तद् शब्दः सो वि हाव् अकारान् We'll, this is not akaranta, this is pumlinga, we have tatshabdha, strilinga we also have tatshabdha, and apunsakalinga also we have tatshabdha. So tat is pradhama vibhakti. Dvitiya vibhakti is also tat, and shashti vibhakti is tatsya. Then we have kim, kim shabdha, kim, dvitiya vibhakti, and kasya is shashti vibhakti. Then we have bhavat, so this is... भवान् भवत् शब्दः इट् इस् गिवेन् अस् भवत् सो ऐ विल् मोडिफै दिस् इस् भवान् भवन्तम् अण्ड् भवतः देट् इस् हौ इट् विल् बि एषा एताम् एतस्याः sa will become tam and tasyaha bhavati bhavatim bhavatyaha ka kam tasyaha ka kam tasyaha these are all strilinga roopam esha etam etasyaha sa tam tasyaha bhavati bhavatim bhavatyaha ka kam tasyaha so ka is prathama vibhakti kam is dvitiya vibhakti tasyaha is shashti vibhakti Astu, so we'll try to practice few more. So let's see. Tangam Bhagni, are you available?
Asmi Mahadeya.
So Bhagni, you are comfortable with the Devanagari script?
Mahadeya, I can't hear you.
Bhagni, can you hear me now? You are comfortable with the Devanagari script, right, Bhagni?
Yes, sir.
Okay, Bhagni. So please, can you please do one second?
The screen is not proper.
Give me a minute, Bhagni. It is taking time to actually reflect for the video.
Vedaha.
न भगिनि अत्र बालकः पठति सो यु हेव् डिफ्रेण्ट् वर्ड्स् अराउण्ड् इट् सो प्लीस् ट्रै टु फार्म् द सेण्टेन्स् यूसिङ्ग् द्वितीया विभक्ति बालकः किं करोति आर् किं पठति बालकः किं पठति
बालकः वेदां वेदां पठति
वेदं पठति समीचीनं
वेदं पठति बालकः श्लोकं पठति बालकः मन्त्रं पठति मन्त्रं पठति बालकः पाठं पठति बालकः कथां पठति बालकः वार्तां पठति बालकः कवितां पठति बालकः पत्रिकां पठति बालकः काव्यं काव्यं पठति बालकः शास्त्रं पठति
बालकः शास्त्रं पठति समीचीनं भगिनि अग्रे माता ददाति
सर् स्क्रीन् इस् नाट् शेर्ड् वित् मी सर् ऐ एम् नाट् एबल् टु
सी
नौ ऐ केन् सी ओके माता ददाति माता दन्तकूर्चं ददाति दन्तकूर्चं इस् पेस्ट्
टूत्ब्रश्
टूत्ब्रश् ओके ओके माता चषकं ददाति चषकम् इस् टम्ब्लर् माता चमसः ददाति चमसः स्पून् माता चमसं ददाति माता प्रोक्षं
सर् प्रोञ्छः न
प्रोञ्छं सो प्रोञ्छं मीन्स् टवल् टवल् आर् स्माल् कैण्ड् आफ् टवल् हर् हेण्ड् कर्चि प्रोञ्छं
दत्ता माता स्थालिकां ददाति माता पेटिकां ददाति माता घटीं ददाति माता कूपीं ददाति माता
वस्त्रं ददाति माता अत्रं ददाति ओ सोरि अन्नं माता अन्नं ददाति
महोदय एक प्रश्नं इफ् यु से माता चषकः ददाति इस् इट् राङ्ग् चषकः बिकम्स् प्रथमा विभक्ति सो ऐ केन् ऐ स्टिल् यूस् चषकः or should I still use dvitiya vibhakti
ha so cheshakah dadati is also correct because she is giving the glass so that is how we want to say him say here but cheshakam or the glass is given or glass is being given mata cheshakam dadati so the glass is being given that is what we are trying to use it will become cheshakam so cheshakah dadati is also correct cheshakam dadati is also correct
okay thank you
It will become gives. That is how we will try to use it. Astu Bhagini. Astu.
Astu.
Dhanyavad Mahodaya.
Aam Bhagini. So similarly, we will we'll see this here quickly. So Swarna Lakshmi Bhagini, are you there?
I am. Yes, me.
Astu Bhagini.
Aham. Shalokah. श्लोकः जानामि अहं
श्लोकं जानामि
अहं श्लोकं जानामि अहं वार्तां जानामि अहं कथां जानामि अहं भगिनीं जानामि अहं गीतं जानामि अहं मार्गं जानामि
अहं मार्गं जानामि
अहं श्लोकं जानामि
समीचीनं भगिनि सो ऐ वाण्ट् टु नो द श्लोक ऐ वाण्ट् टु नो द वार्तम् ऐ वाण्ट् टु नो द स्टोरि ऐ वाण्ट् टु नो द सिस्टर् ऐ वाण्ट् टु नो अबौट् द सिस्टर् ऐ वाण्ट् टु नो अबौट् द न्यूस् ऐ वाण्ट् टु नो अबौट् द साङ्ग् इस् वाट् इस् बीङ्ग् रेफर्ड् टु समीचीनं भगिनि
शुड् वि यूस् मम हियर् ओर् द्वितीय
भगिनि न इट् इस् नाट् रिक्वैर्ड् aham is enough mama means it is mine so we are if you are trying to use mama shlokam janami means of my shloka then we can go for mama but otherwise we can just go with aham shlokam janami aham vartam janami aham katham janami aham bhaginim janami aham geetam janami aham agar
okay dhanyavad
so next we will try to see the sides here so we have here top left right or bottom and below these are the sides that we know of so how do we say this in sanskritam left side is vamatah left side is vamatah dakshinatah is right side upari is top and adah is below vamatah is left side dakshinatah is right side upari is top adah is below Similarly, we have front and back, front and back. So, purutaha, purutaha is front, prushtataha is back. Purutaha is front, prushtataha is back. So, upari, marjalaha or bidalaha kutra asti? Bidalaha, upari asti. The second picture, bidalaha kutra asti, marjaraha kutra asti, bidalaha atva marjaraha adaha asti. Corner, corner means kone. मार्जारः बिडालः कुत्र अस्ति मार्जारः बिडालः कोणे कोणे मीन्स् इन् द कार्नर् कोणे अस्ति केन्द्रे मार्जारः बिडालः कुत्र अस्ति मार्जारः बिडालः केन्द्रे अस्ति केन्द्रे इत्युक्ते इन् द सेण्टर् देन् समीपे समीपे इत्युक्ते नियर् समीपे नियर् दूरे मीन्स् फार् समीपे इस् नियर् दूरे मीन्स् फार् अस्तु किमिदति अन्तः अन्तः इत्युक्ते इन्सैड् अन्तः इत्युक्ते इन्सैड् बहिः मीन्स् औट्सैड् पुरतः मीन्स् इन् द फ्रण्ट् पृष्ठतः मीन्स् बेक् सैड् वामतः मीन्स् लेफ्ट् सैड् दक्षिणतः मीन्स् रैट् सैड् अन्तः इन्सैड् बहिः इस् औट्सैड् पुरतः इस् फ्रण्ट् पृष्ठतः इस् बेक् सैड् vamatah is left side, dakshinatah is right side. That's it. So all of these words are in Shashti Vibhakti. So these words are in Shashti Vibhakti. So this is how we are going to learn this. So the root word is different, just like bhavatah. We have seen bhavatah. So puratah, vamatah, prushtatah, dakshinatah. The other two are in different cases, are different roots, they are different. So these are all in Shashti Vibhakti. So we have one conversation here. Conversation with everybody one second. Okay, so we have a conversation here. This conversation is also given on Prushta Sankhya Ekatrimshat. So this is 31, page number 31 also, this particular conversation has been given. So the conversation is Saha Keshavaha. So it is being referred to as, he is Keshavaha. So Keshavasya Purutaha Shakataha Asti. Shakataha ityukte the carriage, Shakataha Asti. Tasya Prushtataha Vasita Mandiram Asti. So this boy's friend, Vasati Mandiram. Vasati Mandiram ityukte? What is Vasati Mandiram?
Vasati Graha, that is
lodge kind of thing? Lodge, yes. Kind of thing?
Yes, yes. Yeah.
Rest
house. Samichiram. Rest house. Vasati Mandiram Asti. So the Keshavasya Purutaha Shakataha Asti. Purutaha ityukte?
In front of.
Samichiram. In front of. Prushtataha Vasati Mandiram Asti. So which person are we referring to?
The shopkeeper. Keshavaha.
Samichinam. Tasya Prushtataha Vasati Mandiram Asti. So Tasya is being referred to Keshavaha. Keshavasya Purutaha Shakataha Asti. Shakataha has to get that carriage. That is there. Carriage Asti Purutaha Shakataha Asti. Tasya Prushtataha, backside of Keshavaha, Tasya Prushtataha Vasati Mandiram Asti. Rest house, lodge. Tasya Dakshinataha Devalaya Asti. Tasya Dakshinataha Devalaya Asti. So to the right of him is temple. Tasya Dakshinataha. So we see here Dakshinataha. So the right of him is the temple. Tasya Vamataha Vrukshaha Asti. Tasya Vamataha. So the left of him is tree. Tasya Vamataha. Devalasya Upari Kalashaha Asti. Kalashaha Ityukte?
Gopuram.
Yes, tasya devalayasya upari kalashah asti. Shakatasya adaha shunakah asti. Shakatasya adaha shunakah asti. So to the below of the carrier, there is a dog. What is there in the lower end of this picture is a dog. So that is there below the shakataha. Shakataha ityukte the carriage. Shunakaha. Shunakaha ityukte dog. Shakatasya adaha shunakaha asti. So the words are here. When referring to the position, we are using Shashti Vibhakti. Keshavasya. Keshavasya is Shashti Vibhakti. Purataha. Keshavasya Purataha. Tasya Prushtataha. Tasya Dakshinataha. Tasya Vamataha. Devala. Shashti Vibhakti. Yes, all of these are in Shashti Vibhakti. So the usage is that the Vibhakti in which the word is there, the direction is also in that Vibhakti. That is how it is being pointed out here. So what we'll do is, we will stop here. We have seen the direction and we have seen the Dvitiya Vibhakti today. So today's homework is only page number 29, and please revise these slides. Next class, we will start with Panchami Vibhakti also and see other directions as well. We'll try to practice those as well. And 29 and 32, if you, yes, 32 also we can do. So page number 29 and 32, page number 30 we have already completed. So please try to do page number 29 and page number 32. Astu? So, Mahodaya.
Sir, next Sunday is holiday or it is continued?
So, I am not sure if people in US are going to celebrate it on Sunday, then we'll take a break. If people are going, because in India we are trying to do it on Saturday, Sunday also if you are trying to celebrate, then we'll take a break.
Okay. Thank you.
Mahodaya. In US it is Friday, Mahodaya.
Friday, Mahodaya. Astu. So, I will keep you posted by Friday. I am not sure how people are going to celebrate because 3 days they generally celebrate. So, Naraka Chaturdashi, Deepavali and the next day also. I am not sure. So, I will just check with everybody and if anybody has any issues, then we will try to push the class to the next coming week. Otherwise, the class is still on until you get a notification till Friday.
Dhanyavadam.
आं महोदय धन्यवादः एकनिमिषं विल् कम्प्लीट् वित् अवर् शान्ति मन्त्रं विल् कम्प्लीट् वित् अवर् वि स्टार्ट् वित् अवर् प्रेयर् विल् एण्ड् वित् अवर् प्रेयर् सो प्लीस् डोण्ट् गो अवे दट् इस् हौ विर् गोयिङ्ग् टु दिस् इस् वेरि सेक्रेट् टु अस् संस्कृत इस् वेरि सेक्रेट् लेट् अस् आल्सो डू देट् एण्ड् मुरुगन् महोदय आर् यु देयर्
अस्मि महोदय ऐ विल् डू इट् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखवाद् भवेत् ॐ शान्ति शान्ति शान्तिः
धन्यवादः सर्वेभ्यः
धन्यवादः
धन्यवादः
धन्यवादः महोदय
हैप्पी दिवाली टु ऑल
हैप्पी दिवाली
हैप्पी दिवाली हैप्पी दिवाली
happy Diwali to everybody.
Diwali Shubhadeha,
sir. Thank you, everybody. Everybody, happy Diwali. Thank you.
Happy Diwali.
Dhanyavad.
Happy Diwali, Mahodaya.
Happy Diwali.
Dhanyavad, Mahodaya. Happy Diwali.
Dhanyavad, Mahodaya. Shubhratri.
Thank you, Shubhratri. Samyatam.
Simple.